इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रोक्तवान् यत् भारतेन विगत एकादश वर्षेषु स्वस्य सामर्थ्यस्य परिचयः प्राप्तः वर्तते तथा च सर्वकारः तस्य साकारीकरणाय अविरतं कार्यं कुर्वन्नस्ति। ह्यः नवदिल्लीनगरे आयोजितं कार्यक्रमं सम्बोधयन् श्रीमोदी अवदत् यत् विश्वस्य विकसितदेशाः अपि भारतेन सह व्यापारवर्धनाय उत्सुकतां प्रदर्शयन्ति।
हमारे यहाँ शास्त्रों में कहा गया है तत्त्वम् असि, यानी जिस ब्रह्म की खोज में हम निकले हैं वो हम ही हैं, वो हमारे भीतर ही है। जो सामर्थ्य हमारे भीतर है उसे हमें पहचानना है। बीते 11 वर्षों में भारत ने अपना वही सामर्थ्य पहचाना है और इस सामर्थ्य को सशक्त करने के लिए आज देश निरंतर प्रयास कर रहा है।
प्रधानमंत्री श्री नरेन्द्र मोदी अद्य राजस्थानस्य अजमेर नगरे 16,000 कोटितोपि अधिक मूल्यानाम् अनेक विकास परियोजनानाम् उद्घाटनम् आधारशिला स्थापनञ्च करिष्यति। अस्मिन्नवसरे प्रधानमन्त्री बालिकानां कृते राष्ट्रव्यापि HPV इति मानव पेपिलोमा वायरस इत्यस्य टीकाकरण कार्यक्रमस्य आरम्भम् अपि करिष्यति। कार्यक्रमस्य उद्देश्यं सर्वेषु राज्येषु केन्द्रशासित प्रदेशेषु च प्रतिवर्षं 14 आयुर्वर्गस्य प्रायः 1.15 कोटि बालिकानां टीकाकरणं करणीयमस्ति। सर्वकारीय स्वास्थ्य केन्द्रेषु इयं टीका निःशुल्कं प्रदास्यते। भारतीय चिकित्सा संघटनेन सम्पूर्णे भारते 14 वर्षाणां किशोरीणां कृते निःशुल्कं HPV टीकाकरणं प्रदातुं सर्वकारेण कृतनिर्णयस्य स्वागतं कृतम्। प्रधानमन्त्रिणे श्रीनरेन्द्रमोदिने लिखिते पत्रे संघटनेन उक्तं यत् एषः उपक्रमः गर्भाशयस्य कर्करोगस्य निवारणे योगदानं करिष्यति, भारते कोटि कोटि महिलानां स्वास्थ्यस्य जीवनस्य च रक्षणं करिष्यति। अनेन प्रोक्तं यत् राष्ट्रव्यापि 18,000 स्थानीय शाखानां साहाय्येन भारतीय चिकित्सा संघटनम् अस्याः राष्ट्रिय योजनायाः समर्थनार्थं पूर्णतया प्रतिबद्धः वर्तते। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य गुजरातस्य यात्रां करिष्यति। अस्मिन्नवसरे प्रधानमन्त्री सरन्दनगरे माइक्रोन सेमीकंडक्टर टेक्नोलॉजी इंडिया प्राइवेट लिमिटेड इत्यस्य सेमीकंडक्टर योजना परीक्षण पैकेजिंग सुविधायाः उद्घाटनं करिष्यति। अस्याः परियोजनायाः कुलव्ययः 22,000 तोपि अधिक रूप्यकाणि वर्तन्ते। अस्मिन्नवसरे श्रीमोदी सभामपि सम्बोधयिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य बिहारे भारत नेपाल सीमा सहितम् अनेक सीमा सुरक्षा परामर्शेण सम्बद्ध उच्चतरीय समीक्षायाः अध्यक्षतां करिष्यति। सूत्रानुसारम् अस्याः समीक्षा संगोष्ठ्याः उद्देश्यं सीमा प्रबन्धनस्य सुदृढीकरणम्, अवैध निर्माणकार्याणां विरुद्धं सतर्कतावर्धनम् अथ सीमाक्षेत्रसमीपे अवैधनिर्माणम्, अवैधप्रवासः, अतिक्रमणम्, अनधिकृत वित्तीयप्रवाहः इत्यादीनां चिन्तानां निवारणमपि वर्तते। उपराष्ट्रपतिः सीपी राधाकृष्णन् अद्यारभ्य केरलस्य द्विदिवसीय यात्रायां भविष्यति। उपराष्ट्रपतिः स्वस्य यात्रायाः प्रथमदिने चंगनसेरी नगरस्य सेंट बर्चमन्स विद्यालयस्य शताब्दी उत्सवस्य घटिकोत्सवस्य च शोभां वर्धयिष्यति। प्रचलित वित्तवर्षस्य तृतीय त्रिमासे भारतीय अर्थव्यवस्थायां 7.8% वृद्धिः अभवत्। अस्मिन् वर्षे वास्तविक जीडीपी वृद्धिः 7.6% भवतीति अनुमानितम् अस्ति, यद्धि विगतवर्षे 7.1% आसीत्। वस्त्रमन्त्रालयः अद्यारभ्य दिनद्वयं हरियाणाराज्यस्य भिवानीनगरे वस्त्र विज्ञान प्रौद्योगिकी संस्थायां वैश्विक प्रौद्योगिकी वस्त्र सम्मेलनस्य आयोजनं करिष्यति। अन्ताराष्ट्रिय पुरुष विंशतिं प्रतिविंशतिः क्रिकेट विश्व चषक क्रीडायाम् अद्य पल्लकेले अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे पाकिस्तानं श्रीलंका दलं सम्मुखीकरिष्यति। सायं 7 इयं क्रीडा आरप्स्यते। ह्यः कोलंबो नगरस्य आर प्रेमदास क्रीडांगणे सुपर अष्टसमूह द्वितीय क्रीडायाम् इंग्लैण्ड दलेन न्यूजीलैण्ड दलं पराजितम् इति वार्ताः।